श्रीराधारमणाय नमः श्रीगोपालसहस्रनाम स्तोत्राम् पार्वती उवाच कैलाशे शिखरे रम्ये गौरी पृच्छति शङ्करम् ब्रह्माण्डाखिलनाथस्त्वम् सृष्टिसंहारकारकः त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुसुरादिभिः नित्यम् पठसि देवेश कस्य स्तोत्रम् महेश्वरः आश्चर्यमिदमत्यन्तम् जायते मम शङ्करः तत्प्राणेश महाप्राज्ञ संशयन् छिन्दिशङ्करः श्रीमहादेव उवाच धन्यासि कृतपुण्यासि पार्वती प्राणवल्लभे रहस्यातिरहस्यम् च यत्प्रच्छसि वरानने स्त्रीस्वभावान्महादेवी पुनस्त्वम् परिपृच्छसि गोपनीयम् 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 प्रयत्नतः दत्ते च सिद्धिहानि स्यात् तस्माद्यत्नेन गोपयेत् इदम् रहस्यम् परमम् पुरुषार्थप्रदायकाम् धनरत्नौगमाणिक्यम् तुरङ्गगजादिकाम् ददाति स्मरणादेव महामोक्षप्रदायकाम् तत्तेऽहम् सम्प्रवक्ष्यामि शृणुष्वावहिता प्रिये योऽसौ निरञ्जनो देवश्चित्स्वरूपी जनार्दनः संसारसागरोत्तार कारणाय सदा नृणाम् श्रीरङ्गादिकरूपेण त्रैलोक्यम् व्याप्य तिष्ठति ततो लोका महामूढा विष्णुरभक्तिविवर्जिताः निश्चयम् नादिगच्छन्ति पुनर्नारायणो हरिः निरञ्जनो निराकारो भक्तानाम् प्रीतिकामदः वृन्दावनविहाराय गोपालम् रूपमुद्वहन् मुरलीवादनाधारी राधायै प्रीतिमावहन् अंशाशेड्डसमुन्मील्य पूर्णरूपकलायुतः श्रीकृष्णचन्द्रो भगवान् नन्दगोपवरोद्यतः धरणीरूपिणी माता यशोदानन्ददायिनी द्वाभ्याम् प्रयाचितो नाथो देवक्याम् वसुदेवतः ब्रह्मणाभ्यर्थितो देवो देवैरपि सुरेश्वरी जातो वन्याम् मुकुन्दोऽपि मुरलीवेदरेचिका तया सार्धवचः कृत्वा ततो जातो महीतले संसारसार सर्वस्वम् श्यामलम् महदुज्ज्वलम् एतज्ज्योतिरहम् वेद्यम् चिन्तयामि सनातनम् गौरतेजो विनायस्तु श्यामतेजः समर्चयेत् जपेद्वा ध्यायते वापि स भवेत् पातकी शिवे स ब्रह्मासुरापि च स्वर्णस्ते इति पञ्चमः एते दोषैर्विलिप्येत तेजो भेदान् महेश्वरी तस्माज्योतिर्भूद्वेधा राधा माधवरूपकम् तस्मादिदम् महादेवी गोपालेनैव भाषितम् दुर्वासो मुनिर्मोहे कार्तिक्याम् रासमण्डले ततः पृष्टवती राधा सन्देहम् भेदमात्मनः निरञ्जना समुत्पन्नम् मयाधीतम् जगन्मयि श्रीकृष्णेन ततः प्रोक्तम् राधायै नारदाय च ततो नारदतः सर्व विरला वैष्णवास्तथा कलौ जानन्ति देवेशि गोपनीयम् प्रयत्नतः शठाय कृपणायात दाम्भिकाय सुरेश्वरि ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत्
ॐ अस्य श्रीगोपालसहस्रनाम स्तोत्रमन्त्रस्य श्रीनारदऋषिः अनुष्टुप् छन्दः श्रीगोपालो देवताः कामो बीजम् मायाशक्तिः चन्द्रः कीलकम् श्रीकृष्णचन्द्रभक्तिरूपफलप्राप्ते श्रीगोपालसहस्रनाम स्तोत्रजपे विनियोगः
ॐ क्लाम् अङ्गुष्ठाभ्याम् नमः ॐ क्लीम् तर्जनीभ्याम् नमः ॐ क्लूम् मध्यमाभ्याम् नमः ॐ क्लैम् अनामिकाभ्याम् नमः ॐ क्लौम् कनिष्ठकाभ्याम् नमः ॐ क्लः करतलकरपृष्ठाभ्याम् नमः ॐ क्लाम् हृदयाय नमः ॐ क्लीम् शिरसे स्वाहा ॐ क्लौम् शिखाय वषट ॐ क्लैम् कवचाय होम् ॐ क्लौम् नेत्रत्रयाय वौषट ॐ क्लः अस्त्राय फट
अथ ध्यानम्।
कस्तूरी तिलकम् ललाट पटले वक्षस्थले कौस्तुभाम् नासाग्रे वरमोक्तिकम् करतले वेणुकरे कङ्कणम् सर्वाङ्गे हरिचन्दनम् सुललितम् कण्ठे च मोक्तावली गोपास्त्री परिवेष्टितो विजयते गोपालचूडामणिः फुल्लेन्दीवरकान्तिमिन्दुवदनाम् वरहावतान् सम्प्रियाम् श्रीवासाङ्गमुदारकौस्तुभधरम् पीताम्बरम् सुन्दरम् गोपीनाम् नयनोत्पलार्चिततनोम् गोगोपसङ्घावृताम् गोविन्दम् कलवेणुवादनपरम् दिव्याङ्गभूषणम् भजे
अथ स्तोत्राम् ॐ क्लीम् देवः कामदेवः कामबीजशिरोमणिः श्रीगोपालो महीपालः सर्ववेदाङ्गपारगः धरणीपालको धन्यः पुण्डरीकः सनातनः गोपतिर्भूपतिः शास्ता प्रहर्ता विश्वतोमुखः आदिकर्ता महाकर्ता महाकालः प्रतापवान् जगज्जीवो जगद्धाता जगद्भर्ता जगद्वसुः मत्स्यो भीमः कुहूभर्ता हर्ता वाराहमूर्तिमान् नारायणो ऋषिकेशो गोविन्दो गरुडध्वजः गोकुलेन्द्रो महाचन्द्रः शर्वरी प्रियकारकः कमलामुखलोलाक्षः पुण्डरीकशुभावः दुर्वासः कपिलो भौमः सिन्धुसागरसङ्गमः गोविन्दो गोपतिर्गोत्रः कालिन्दी प्रेमपूर्वकः गोपस्वामी गोकुलेन्द्रो गोवर्धनवरप्रदः नन्दादिगोकुलत्राता दाता दारिद्र्यभञ्जनः सर्वमङ्गलदाता च सर्वकामप्रदायकः आदिकर्ता महीभर्ता सर्वसागरसिन्धुजः गजगामी गजोद्धारी कामी कामकलानिधिः कलङ्करहितश्चन्द्रो बिम्बास्यो बिम्बसत्तमः मालाकारः कृपाकारः कोकिलास्वरभूषणः रामो नीलाम्बरो देवो हलीदुर्मदमर्दनः सहस्राक्षपुरीभेत्ता महामारिविनाशनः शिवः शिवतमाभेत्ता बलारातिप्रपूजकः कुमारी वरदायी च वरेण्यो मीनकेतनः नरो नारायणो धीरो राधापतिरुदारधिः श्रीपतिः श्रीनिधिः श्रीमान् मापतिः प्रतिराजः वृन्दापतिः कुलम् ग्रामे धामी ब्रह्म सनातनः रेवती रमणो रामश्चञ्चलचारुलोचनः रामायणशरीरोऽयम् रामो रामः श्रियाम् पतिः शर्वरः शर्वरी शर्वः सर्वत्र शुभदायकः राधा राधयितो राधि राधाचित्तप्रमोदकः राधारति सुखोपेतो राधामोहन तत्परः राधावशीकरो राधा हृदयाम्भोजषट्पदः राधालिङ्गन सम्मोहो राधानर्तन कौतुकः राधा सञ्जात सम्प्रीतो राधा कामफलप्रदः वृन्दापतिः कोकनिधिः कोकशोक विनाशकः चन्द्रापतिश्चन्द्रपतिश्चण्डको दण्डभञ्जनः रामो दाशरथी रामो भृगुवंशसमुद्भवः आत्मा रामोदितक्रोधो मोहो मोहान्धभञ्जनः वृषभानुर्भवो भावः काश्यपिः करुणानिधिः कोलाहलो हलीहाली हलीहलधरप्रियः राधामुखाब्जमार्तण्डो भास्करो रविजो विदुः विधिर्विधाता वरुणो वारुणो वारुणिप्रियः रोहिणी हृदमानन्दो वसुदेवात्मजो बलिः नीलाम्बरो रोहिणेयो जरासन्दवदोमलः नागो नवाम्बो विरुदो वीरः वरदो बलिः गोपतो विजयी विद्वान् सिपिविष्टः सनातनः परशुरामवचो ग्राही वरग्राहि श्रीगालः धमघोषोपदेष्टा च रथग्राहि सुदर्शनः वीरपत्नी यशस्त्राता जराव्याधिविघातकः द्वारकावास तत्त्वज्ञो हुताशनवरप्रदः यमुना वेग संहारी नीलांबरधर प्रभो विभूसरासनो धन्वी गणेशो गणनायकः लक्षणो लक्षणो लक्ष्यो रक्षो वंश विनाशनः वामनो वामनी भूतो वामनो वामनारुहः यशोदानन्दनः कर्ता यमलार्जुन मुक्तिदः उलूखली महामानी दामवद्दाय विषमिः भक्तानुकारी भगवान् केशवो चलधारकः केशिहा मधुहा मोहि वृषासुर विघातकः अघासुर विनाशी च पूतना मोक्षदायकः कुब्जा विनोदि भगवान् कंसमृत्युर्महामखी अश्वमेधो वाजपेयो गोमेधो नरमेधवान् कन्दर्पकोटिलावण्यश्चन्द्रकोटि सुशीतलः रविकोटिप्रतीकाशो वायुकोटि महाबलः ब्रह्मा ब्रह्माण्डकर्ता च कमलावाञ्छितप्रदः कमली कमलाक्षश्च कमलामुखलोलुपः कमलाव्रतधारी च कमलाभः पुरन्दरः सौभाग्याधिकचित्तोऽयम् महामायी मदोत्कटः तारकारीश्वरत्राता मारीचक्षोभकारकः विश्वामित्रप्रियो दान्तो रामो राजीवलोचनः लङ्काधिपकुलध्वंसी विभीषणवरप्रदः सीतानन्दकरो रामो वीरो वारिधिवन्दनः हरदूषणसंहारी साकेतपुरवासनः चन्द्रावलीपतिकूलः केशिकंसवधोमरः माधवो मधुहा माध्वी माध्वीको माधवो मधुः मुञ्जाटवीगाहमानो धनुष्कारी धरात्मजः वंशीवटविहारी च गोवर्धनवनाश्रयः तयातालवनोद्देशी भाण्डीरवणशङ्खः प्रणावर्तकथाकारी वृषभानुसापतिः राधा प्राणसमो राधा वदनाब्जमधुव्रतः गोपीरञ्जन दैवज्ञो लीलाकमलपूजितः क्रीडाकमलसन्दोः गोपिका प्रीतिरञ्जनः रञ्जको रञ्जनो रङ्गो रङ्गीरङ्गमहीरुहः कामः कामारि भक्तोऽयम् पुराणपुरुषः कविः नारदा देवलो भीमो बालो बालमुखाम्बुजः अम्बुजो ब्रह्म साक्षी च योगी दत्तवरो मुनिः ऋषभः पर्वतो ग्रामो नदी पवनवल्लभः पद्मनाभ सुरश्रेष्ठो ब्रह्मा रुद्रो हि भूषितः गणानां त्राणकर्ता च गणेशो ग्रहिलो ग्रही गणाश्रयो गणाध्यक्ष क्रीडीकृत जगत्त्रयः यादवेन्द्रो द्वारकेन्द्रो मथुरावल्लभो धुरिः भ्रमरः कुन्तली कुन्ती सुतरक्षी महामखिः यमुनावरदाता च काश्यपस्य वरप्रदः शङ्खचूडवधोद्दामो गोपीरक्षणतत्परः पाञ्चजन्यकरो रामो त्रिरामो वनजोजयः फाल्गुनः फाल्गुनसखो विराधवधकारकः रुक्मिणी प्राणनाथश्च सत्यभामा प्रियङ्करः कल्पवृक्षो महावृक्षो दानवृक्षो महाबलः अङ्कुशो भूसरो भामो भामको भ्रामको हरिः सरलः शाश्वतो वीरो यदुवंशी शिवात्मकः प्रद्युम्नो बलकर्ता च प्रहर्तादित्यः प्रभुः महाधनो महावीरो वनमाला विभूषणः तुलसीदामशोभाढ्यो जालन्धरविनाशनः शूरः सूर्यमृदण्डश्च भास्करो विश्वपूजितः रविस्तमोहावह्निश्च वाडवो वडवानलः दैत्यदर्पविनाशी च गरुडो गरुडाग्रजः गोपीनाथो महानाथो ग्रन्थानाथो वरोधकः प्रपञ्चे पञ्चरूपश्च लता गुल्मश्च गोपतिः गङ्गा च यमुनो रूपो गोदावेत्रवतिस्तथा कावेरी नर्मदा ताप्ती गण्डकी सरयुस्तथा राजसस्तामसा सत्वी सर्वाङ्गी सर्वलोचनः सुधामयो मृतमयो योगिनी वल्लभः शिवः बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः सचीपतिः वंशी वंशधरो लोको विलोको मोहनाशनः रवरावो रवो रावो बालो बालवलाहकः शिवो रुद्रो नलो नीलो लाङ्गुली लाङ्गलाश्रयः पारदः पावनो हंसो हंसारूढो जगत्पतिः मोहिनी मोहनो माया महामायी महामखिः वृषो वृषाकषी काल काली दमनकारकः कुब्जा भाग्यप्रदो वीरो रजगक्षयकारकः कोमलो वारुणो राजा जलजो जलधारकः हारकः सर्वपापगणः परमेष्ठी पितामहः अंगधारी कृपाकारी राधारमण सुन्दरः द्वादशारण्य संभोगी शेषनागफणालयः कामः श्यामः सुखश्रीदः श्रीपति श्रीनिधिकृतिः हरिर्हरो नरो नारो नरोत्तम इषुप्रियः गोपाली चित्तहर्ता च कर्ता संसारतारकः आदिदेवो महादेवो गौरी गुरुरनाश्रयः साधुर्माधुर्विधुर्धाता त्राता क्रूरपरायणः रोलम्बी च अयग्रीवो वानरारिर्वनाश्रयः वनं वनी वनाध्यक्षो महावैद्यो महामुनिः समन्तकमणि प्राज्ञो विज्ञो विघ्नविघातकः गोवर्धनो वर्धनीयो वर्धनी वर्धनः प्रियः वर्धन्यो वर्धनो वर्धि वार्धिन्या सुमुखप्रियः वर्धितो वर्धको वृद्धो वृन्दारकजनप्रियः गोपालरमणी भरता साम्बकोष्ठविनाशनः रुक्मिणीहरणः प्रेम प्रेमी चन्द्रावलीपतिः श्रीकर्ता विश्वभर्ता च नरो नारायणो बलिः गणो गणपतिश्चैव दत्तात्रेयो महामुनिः व्यासो नारायणो दिव्यो भव्यो भावुकधारकः स्वश्रेयसं शिवं भद्रं भावुकं भविकं शुभं शुभात्मकः शुभशास्ता रसास्ता मेघनादहाः ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षमः कृष्णः कमलपत्राक्षः कृष्णः कमललोचनः कृष्णः कामी सदा कृष्णः समस्तप्रियकारकः नन्दो नन्दी महानन्दी मादो मादनकः किली मिलिहिलि गिलि गोलि गोलो गोलालयोङ्गलि गुग्गुलि मारकी शाखी वटापिप्पलकः कृतो वेच्छः कालहर्ता च यशोदा यशः एव च अच्युतः केशवो विष्णुर् हरि सत्यो जनार्दनः हंसो नारायणो नीलो लीनो भक्तपरायणः जानकी वल्लभो रामो विरामो विघ्ननाशनः सहस्रांशुर्महाभानुर्वीरबाहुर्महोदधिः समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः गोकुलानन्दकारी च प्रतिज्ञापरिपालकः सदा रामः कृपारामो महारामो धनुर्धरः पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः कम्बलाश्वतरो रामो रामायण प्रवर्तकः द्योर्दिवो दिवसो दिव्यो भव्यो भावि भयापहः पार्वती भाग्यसहितो भ्राता लक्ष्मी विलासवान् विलासी साहसी सर्वी गर्वे गर्वितलोचनः मुरारिर्लोकधर्मज्ञो जीवनो जीवनान्तकः यमो यमारिर्यमनो यामी याम विधायकः वंसुली पांसुली पासो पाण्डुरर्जुनवल्लभः ललिता चन्द्रिका माली माली मालाम्बुजाश्रयः अम्बुजाक्षो महायक्षो दक्षश्चिन्तामणिप्रभो मणिर्दिनमणिश्चैव केदारो बदरिश्रयः बदरीवन सम्प्रीतो व्यासः सत्यवती सुतः अमरारि निहन्ता च सुधा सिन्धुर्विदूदयः चन्द्रो रवि शिवाशूलि चक्री चैव गदाधरः श्रीकर्ता श्रीपति श्रीदः श्रीदेवो देवकी सुतः श्रीपति पुण्डरीकाक्ष पद्मनाभो जगत्पतिः वासुदेव प्रमेयात्मा केशवो गरुडध्वजः नारायणः परम् धाम देवदेवो महेश्वरः चक्रपाणिः कलापूर्णो देववेदो दयानिधिः भगवान् सर्वभूतेषु गोपालः सर्वपालकः अनन्तो निर्गुणो नित्यो निर्विकल्पो निरञ्जनः निराधारो निराकारो निराभासो निराश्रयः पुरुषः प्रणवातीतो मुकुन्दः परमेश्वरः क्षणावाणिः सार्वभौमो वैकुण्ठो भक्तवत्सलः विष्णुर्दामोदरः कृष्णो माधवो मधुरापतिः देवकी गर्वसम्भूतो यशोदावत्सलो हरिः शिवाशङ्कर्षणा शम्भु भूतनाथो दिवस्पतिः अव्ययः सर्वधर्मज्ञो निर्मलो निरुपद्रवः निर्वाणनायको नित्यो नीलजीमूतसन्निवः कलाक्षयश्च सर्वज्ञः कमलारूपतत्परः ऋषिकेशः पीतवासो वसुदेव प्रियात्मजः नन्दगोपकुमारार्यो नवनीताशनप्रभो पुराणपुरुषः श्रेष्ठः शङ्कपाणि सुविक्रमः अनिरुद्धश्चक्ररथः शाङ्गपाणिश्चतुर्भुजः गदाधरासुरार्तिघ्नो गोविन्दो नन्दकायुधः वृन्दावनचरः शौरिर्वेणो वाद्यविशारदः रणावरतान्तको भीमा साहसो बहुविक्रमः शकटासुरसंहारी बकासुरविनाशना धेनुकासुरसंहारी पूतनारेन्द्रकेसरी पितामहो गुरुः साक्षी प्रत्यगात्मा सदाशिवः अप्रमेयः प्रभुप्राज्ञो प्रत्यर्क्यः स्वप्नवर्धनः धन्यो मान्यो भवो भावो धीरः शान्तो जगद्गुरुः अन्तर्यामीश्वरो दिव्यो देवज्ञो देवता गुरुः शिलाभिषयनो धाता लक्ष्मीवाल्लक्ष्मणाग्रजः धात्रीपतिरमेयात्मा चन्द्रशेखरपूजितः लोकसाक्षी जगच्चक्षुः पुण्यचारित्रकीर्तनः कोटिमन्मथसौन्दर्यो जगन्मोहनविग्रह मन्दस्मिततमो गोपो गोपिका परिवेष्टितः पुल्लारविन्दनयनश्चाणूरान्ध्रनिदूषणः इन्दीवरदलश्यामो बर्हीवर्हावतंसकः मुरलीनिनादहल्लादो दिव्यमालाम्बराश्रयः सुखपोलयुगः शुभ्रो युगलः सुललाटकः कम्बुग्रीवो विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः हीनवक्षाश्चतुर्बाहुश्चतुर्मूर्तिस्त्रिविक्रमः कलङ्करहितः शुद्धो दुष्टशत्रुनिबर्हणः किरीटकुण्डलधरः कटकाङ्गदमण्डितः मुद्रिकाभरणोपेतः कटिसूत्रविराजितः मञ्जीररञ्जितपदः सर्वाभरणभूषितः विन्यस्तपादयुगलो दिव्यमङ्गलविग्रहः गोपिकानयनानन्दः पूर्णचन्द्रनिभाननः समस्तजगदानन्दः सुन्दरो लोकनन्दनः यमुनातीरसञ्चारी राधामन्मथवैभवः गोपनारीप्रियोदान्तो गोपीवस्त्रापहारकः शृङ्गारमूर्तिः श्रीधाम तारको मूलकारणाम् सृष्टिसंरक्षणोपायः क्रूरासुरविभञ्जनः नरकासुरसंहारी मुरारिर्वैरिमर्दनः आदितेयप्रियो दैत्य भीकरश्चेन्दुशेखरः जरासन्धकुलध्वंसी कंसारादिसुविक्रमः पुण्यश्लोकः कीर्तनीयो यादवेन्द्रो जगन्नुतः रुक्मिणीरमणः सत्य भामाजाम्भवती प्रियः मित्रविन्दानाग्रजीति लक्ष्मणा समुपासितः सुधाकरकुले जातो नन्दप्रबलविक्रमः सर्वसौभाग्यसम्पन्नो द्वारकायमुपस्थितः भद्रासूर्यसुतानाथो लीलामानुषविग्रहः सहस्रषोडशस्त्रीषु भोगमोक्षैकदायकः वेदान्तवेद्यः संवेद्यो वेद्यो ब्रह्माण्डनायकः गोवर्धनधरो नाथ सर्वजीवदयापरः मूर्तिमान् सर्वभूतात्मा आर्तत्राणपरायणः सर्वज्ञः सर्वसुलभः सर्वशास्त्रविशारदः षड्गुणैश्वर्यसम्पन्नः पूर्णकामो धुरन्धरः महानुभावः केवल्य दायको लोकनायकः आदिमध्यान्तरहितः शुद्धसात्विकविग्रहः असमानः समस्तात्मा शरणागतवत्सलः उत्पत्तिस्थितिसंहार कारणम् सर्वकारणम् गम्भीरः सर्वभावज्ञ सच्चिदानन्दविग्रहः विश्वक्सेनः सत्यसन्ध सत्यवात् सत्यविक्रमः सत्यव्रतः सत्यरतः सर्वधर्मपरायणः आपन्नार्तिप्रशमनो द्रौपदीमानरक्षकः कन्दर्पजनकः प्राज्ञो जगन्नाटकवैभवः भक्तिवश्यो गुणातीतः सर्वैश्वर्यप्रदायकः दमघोषसुतद्वेषी बाणबाहुविखण्डनः भीष्मभक्तिप्रदो दिव्यः कौरवान्वयनाशनः कौन्तेयप्रियबन्धुश्च पार्थस्यन्दनसारथिः नारसिंहो महावीरः स्तम्भजातो महाबलः प्रह्लादवरदः सत्यो देवपूज्यो भयङ्करः उपेन्द्र इन्द्रावरजो वामनो बलिबन्दनः गजेन्द्रवरदः स्वामी सर्वदेव नमस्कृतः शेषपर्यङ्कशयनो वैनतेयरथोजै अव्याहतबलैश्वर्य सम्पन्नः पूर्णमानसः योगेश्वरेश्वरः साक्षी क्षेत्रज्ञो ज्ञानदायकः योगिरित्पङ्कजावासो योगमाया समन्वितः नादबिन्दुकलातीतश्चतुर्वर्गफलप्रदः सुषुम्नामार्गसञ्चारी देहस्यान्तरसंस्थितः देहेन्द्रियमनः प्राण साक्षी चेतः प्रसादकः सूक्ष्मा सर्वगतो देहि ज्ञानदर्पणगोचरः तत्त्वत्रयात्मको व्यक्तः कुण्डली समुपाश्रितः ब्रह्मण्यः सर्वधर्मज्ञः शान्तोदान्तो गतक्लमः श्रीनिवासः सदानन्दो विश्वमूर्तिर्महाप्रभुः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् समस्तभुवनाधारः समस्तप्राणरक्षकः समस्तः सर्वभावज्ञो गोपिका प्राणवल्लभः नित्योत्सवो नित्यसौख्यो नित्यश्रीनित्यमङ्गलः गुह्यार्चितो जगन्नाथ श्रीवैकुण्ठपुराधिपः पूर्णानन्दगनीभूतो गोपवेशधरो हरिः कलापकुसुमस्यामः कोमलः शान्तिविग्रहः गोपाङ्गनावितोऽनन्तो वृन्दावनसमाश्रयः वेणुवादरता श्रेष्ठा देवानां हितकारकः बालक्रीडासमासक्तो नवनीतस्य तस्करः गोपालकामिनीजारश्चोरजारशिखामणिः परञ्ज्योतिः पराकाशः परावासः परिस्फुटः अष्टादशाक्षरो मन्त्रो व्यापको लोकपावनः सप्तकोटिमहामन्त्र शेखरो देवशेखरः विज्ञानज्ञानसन्धानस्तेजो राशिर्जगत्पतिः भक्तलोकप्रसन्नात्मा भक्तमन्दारविग्रहः भक्तदारिद्र्यदमनो भक्तानां प्रीतिदायकः भक्तादीनमनः पूज्यो भक्तलोकशिवङ्करः भक्ताभीष्टप्रदा सर्व भक्तो घोगनिकन्दनः अपारकरुणासिन्धुर्भगवान् भक्ततत्परः इति श्रीराधिकानाथ सहस्रनाम कीर्तनम्। अथ माहात्म्यम् स्मरणात् पापराशीनाम् खण्डनम् मृत्युनाशनाम् वैष्णवानाम् प्रियकराम् महारोगनिवारणाम् ब्रह्महत्यासुरापानाम् परश्रीगमनम् तथा परद्रव्यापहरणाम् परद्वेषसमन्विताम् मानसवाचिकम् कायाम् यत्पापम् पापसम्भवाम् सहस्रनामपठनात् सर्वम् नश्यति तत्क्षणात् महादारिद्र्ययुक्तो यो वैष्णवो विष्णुभक्तिमान् कार्तिक्याम् सम्पठेद्रात्रो शतमष्टोत्तरम् क्रमात् पीताम्बरधरो धीमान् सुगन्धिपुष्पचन्दनैः पुस्तकम् पूजयित्वा तु नैवेद्यादिभिरेव च राधाध्यानाङ्कितो धीरो वनमाला विभूषितः शतमष्टोत्तरम् देवीम् पठेन्नाम सहस्रकाम् चैत्रशुक्ले च कृष्णे च कुः सङ्क्रान्तिवासरे पठितव्यम् प्रयत्नेन त्रैलोक्यम् मोहयेक्षणात् तुलसीमालया युक्तो वैष्णवो भक्तितत्परः रविवारे च शुक्रे च द्वादश्याम् श्राद्धवासरे ब्राह्मणम् पूजयित्वा च भोजयित्वा विधानतः पठेन्नाम सहस्रम् च तदा सिद्धि प्रजायते महानिशायाम् सततम् वैष्णवो यः पठेत् सदा देशान्तर्गता लक्ष्मी समायाति न संशयः त्रैलोक्ये च महादेवी सुन्दर्यः काममोहितः मुग्धः स्वयम् समायान्ति वैष्णवम् च भजन्ति ताः रोगिरोगात् प्रमुच्येत बद्धोमुच्येत बन्धनात् गर्भिणी जनयेत् पुत्रम् कन्या विन्दति सत्पतिम् राजानो वश्यताम् यान्ति किम् पुनः क्षुद्रमानवाः सहस्रनाम सर्वणात् पठनात् पूजनात् प्रिये धारणात् सर्वमाप्नोति वैष्णवो नात्र संशयः वंशीवटे चान्यवटे तथापि पलके तव कदम्बपादपतले गोपालमूर्तिसन्निधौ या पठेद्वैष्णवो नित्यम् स याति हरिमन्दिरम् प्रश्नेनोक्तम् राधिकायै मया प्रोक्तम् पुरा शिवे नारदाय मया प्रोक्तम् नारदेन प्रकाशितम् मया त्वयि वरारोहे प्रोक्तमेतत् सुदुर्लभम् गोपनीयम् प्रयत्नेन न प्रकाश्यम् कथञ्चनः सठाय पापिने चैव लम्पटाय विशेषतः न दातव्यम् न दातव्यम् न दातव्यम् कदाचन देयम् शिष्याय शान्ताय विष्णुभक्तिरताय च गोदानब्रह्मयज्ञस्य वाजपेयशतस्य च अश्वमेधसहस्रस्य फलम् पाठे भवेद्ध्रुवम् मोहनम् विस्तम्बनम् चैव मारणोच्चाटनादिकम् यद्यद्वाञ्छति चित्तेन तत्प्राप्नोति वैष्णवः एकादश्याम् नरः स्नात्वा सुगन्धिद्रव्यतैलकैः आहारम् ब्राह्मणम् दत्त्वा दक्षिणाम् स्वर्णाभूषणम् तथा आरम्भकर्तास्य सर्वे प्राप्नोति मानवः शताव्यक्तम् सहस्रम् च यापठेद्वैष्णवो जनः श्रीवृन्दावनचन्द्रस्य प्रसादाः सर्वमाप्नुयात् यद्गृहे पुस्तकम् देवि पूजितम् चैव तिष्ठति न मारी न च दुर्भिक्षम् नोपसर्गभयम् क्वचित् सर्वाधिभूतयच्छाद्या नश्यन्ति नात्र संशयः श्रीगोपालो महादेवी वसेत्तस्य गृहे सदा गृहे यत्र सहस्रम् च नाम्नाम् तिष्ठति पूजिताम्
श्रीसम्मोहनतन्त्रे पार्वतीश्वरसंवादे गोपालसहस्रनाम सम्पूर्णम्।
कृष्णाय वासुदेवाय हरये परमात्मने प्रणतः क्लेशनाशाय गोविन्दाय नमो नमः।
कृष्णाय वासुदेवाय हरये परमात्मने प्रणतः क्लेशनाशाय गोविन्दाय नमो नमः।
कृष्णाय वासुदेवाय हरये परमात्मने प्रणतः क्लेशनाशाय गोविन्दाय नमो नमः।
कृष्णाय वासुदेवाय हरये परमात्मने प्रणतः क्लेशनाशाय गोविन्दाय नमो नमः।
मधुराष्टकम्
आधरम् मधुरम् वदनम् मधुरम् नयनम् मधुरम् हसितम् मधुरम् हृदयम् मधुरम् गमनम् मधुरम् मधुराधिपतेरखिलम् मधुरम् वचनम् मधुरम् चरितम् मधुरम् वसनम् मधुरम् वलितम् मधुरम् चलितम् मधुरम् भ्रमितम् मधुरम् मधुराधिपतेरखिलम् मधुरम् वेणुर्मधुरो रेणुर्मधुरा पाणिर्मधुरः पादौ मधुरौ नृत्यम् मधुरम् सख्यम् मधुरम् मधुराधिपतेरखिलम् मधुरम् गीतम् मधुरम् पीतम् मधुरम् भोक्तम् मधुरम् सोक्तम् मधुरम् रूपम् मधुरम् तिलकम् मधुरम् मधुराधिपतेरखिलम् मधुरम् करणम् मधुरम् तरणम् मधुरम् हरणम् मधुरम् रमणम् मधुरम् वमितम् मधुरम् शमितम् मधुरम् मधुराधिपतेरखिलम् मधुरम् गुञ्जामधुरा माला मधुरा यमुना मधुरा वीची मधुरा सलिलम् मधुरम् कमलम् मधुरम् मधुराधिपतेरखिलम् मधुरम् गोपी मधुरा लीला मधुरा योक्तम् मधुरम् मोक्तम् मधुरम् दृष्टम् मधुरम् श्रेष्ठम् मधुरम् मधुराधिपतेरखिलम् मधुरम् गोपा मधुरा गावो याष्टेर्मधुरा श्रेष्ठेर्मधुरा दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरं
श्रीमद्वल्लभाचार्य कृतं मधुराष्टकं सम्पूर्णम्।